सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः।
ॐ एनाक्षरसमाम्नायम् अधिगम्यं महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। एन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादः। पूर्वतनेषु वर्गेषु धातुविज्ञानं द्वितीयभागः इति करपत्रम् अस्माभिः पठितं। तस्मिन् करपत्रे केचन औपदेशिकधातवः सन्ति। अभ्यासमपि वयं कृतवन्तः। अभ्यासः न समापितः। इतोपि तत्र दशधातवः अवशिष्टाः सन्ति। केचन धातवः न परामृष्टाः, अतः तेषाम् अवशिष्टानां धातूनां चिन्तनं कुर्मः अद्य। केचन अन्यधातवः अपि मया प्रेषिताः, अतः अद्य केवलम् अभ्यासम् एव कुर्मः, न तु नूतनपाठः। सारांशरूपेण वक्तव्यं चेत्, धातुषु अनुबन्धलोपानन्तरं सत्त्वं नत्वं नुमागमः उपधादीर्घः इत्येतेषु चतुर्षु प्राकृतिककार्येषु एकं वा कार्यद्वयं वा धातोः औपदेशिकरूपम् आश्रित्य प्राकृतिकानि कार्याणि भवन्ति। ष्टकौ धातोः पर्यन्तं वयं समापितवन्तः। अद्य खोर्द् धातुतः आरभ्य अभ्यासं कुर्मः। किं करणीयम्? अत्र धातुषु अनुबन्धवर्णाः के, प्राकृतिकानि कार्याणि किं भवन्ति, केन सूत्रेण किं कार्यं भवति, औपदेशिकधातुभ्यः लौकिकधातोः रूपं साधयितुं कानि सूत्राणि आवश्यकानि इति सूत्राणां साहाय्येन सोपानेन वक्तव्यम्। भवन्तः सर्वे सिद्धाः इति मन्ये। इदानीम् आरम्भं कुर्मः। खुर्द् इति धातुतः आरभ्य करणीयम्। वीणा भगिनी, भवती एव आरम्भं करोतु।
अत्र खुर्द् खुर्द इति धातुः अस्ति। अत्र कूर्द दकार हलन्तधातुः अस्ति, हलन्तधातुः अस्ति। ततः अत्र सत्त्वम् इति प्रसङ्गः नास्ति, सूत्रस्य प्रसङ्गः नास्ति। धात्वादेः शः अथवा शः सः इति सूत्रस्य प्रसङ्गः नास्ति। नत्वम् अपि प्रसङ्गं नास्ति। अत्र नुमागमः इदिद्धातुः अपि नास्ति, खुर्द इति अस्ति, इदिद्धातुः अपि नास्ति। अतः इदितो नुम् धातोः अपि प्रसङ्गः नास्ति। तदनन्तरम् अत्र उपधादीर्घः इति भवति। किमर्थम् इत्युक्ते खुर्द इति हलन्तधातुः।
भगिनी, अत्र किं वक्तुम् इच्छामि इत्युक्ते औपदेशिकधातोः रूपं ह्रस्व उकारः एव अस्ति, न तु दीर्घ ऊकारः। वदतु,
कूर्द दकारस्य परे अकारः अनुनासिकः अस्ति, अकारः अनुनासिकः अस्ति। तस्य हलन्त्यम् इति सूत्रेण, क्षम्यताम्, उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः भवति। खुर्द केवलं खुर्द इति अवशिष्यते। तदनन्तरं कुर्द इति हलन्तधातुः अस्ति। उपदायां रेफः अस्ति, रेफ दकारस्य पूर्वं रेफः अस्ति उपधायां। तदनन्तरं रेफस्य पूर्वं इक् वर्णः अस्ति, उकारः अस्ति, इक् वर्णः, उकारः इत्युक्ते इक् वर्णः अस्ति। अतः उपधादीर्घः इति भवति, कूर्द इति तदनन्तरं भवति।
साधु साधु, तदेव। अत्र लौकिकधातुः खूर्द् धातुः हलन्तधातुः, अपि च उपधा भूत रेफात् पूर्वं ह्रस्व उकारः अस्ति. ह्रस्व उकारः इक् प्रत्याहारस्थवर्णः. रेफ वकारयोः पूर्वम् उपधायां यः ईक् वर्णः अस्ति तस्य दीर्घत्वं भवति इति कृत्वा खूर्द् इति लौकिकधातोः रूपम् अस्ति. धातुः भ्वादिगणीयः अतः खूर्दते इति रूपं. किमर्थं चेत् धातुः आत्मनेपदी धातुः अतः लटीरूपं खूर्दते. साधु भगिनी अग्रे अपि करोतु.
पृषु इति अस्ति. पृषु इति तस्य पृषु इति अत्र पृषधानन्तरं परे उकारः अस्ति. अनुनासिक उकारः अस्ति. तस्य उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः भवति. पृष इति अवशिष्यते. पृष् इति अवशिष्यते. पृष् इति स्वादिगणे अस्ति वा? भ्वादिगणे एव अस्ति वा? भ्वादिगणे अस्ति. अतः शप् इति प्रत्ययः आगच्छति. तच्च शकारस्य लशकुतदिते इति सूत्रेण तस्य लोपः भवति. पकारस्य अपि हलन्त्यम् इति सूत्रेण तस्य लोपः भवति. अ इति अवशिष्यते. पृष इति धातुः अस्ति. तस्य अत्र तपरकरणस्य प्रसक्तिः अस्ति.
किञ्चित् शनैः शनैः चिन्तयामः. पृष् इति कथनेन अन्ते शकारः अस्ति. शकारस्य इति संज्ञा हलन्त्यम् इत्यनेन भवति वा न वा?
न भवत् पृष् न विभक्तौ तु स्मः इति सूत्रे न भवति वा?
न अत्र
धातुः अस्ति. एतद् धातुः एव अस्ति.
अत्र किं वक्तव्यं? तत्र स्थितस्य शकारस्य इति संज्ञा न भवति. किमर्थं चेत् उपदेशावस्थायाम् अन्तिम हल् वर्णः अस्ति चेदेव हलन्त्यम् इत्यनेन अपगच्छति. अत्र उपदेशावस्थायां धातोः रूपं परिशीलयामश्चेत् अत्र अनुनासिक उकारः अन्तिमवर्णः न तु शकारः, खलु? पृष् इति धातुः अस्ति. पृष् धातोः रूपं परिशीलयामश्चेत् धातुः हलन्तः अस्ति. उपधायां कः वर्णः अस्ति?
ऋकारः अस्ति.
ह्रस्वरुकारः खलु?
ह्रस्व इक् वर्णः एव. ह्रस्व ऋकारः एव अस्ति. अतः तस्य शप् इति आकारः अकारः अस्ति इदानीं तु. तस्य अकारस्य परे ऋकारस्य परे अकारस्य तस्य गुणः भवति. पर्श इति भवति. पर्श तदनन्तरं तिप् इति लट्लकारस्य रूपं तु तिप् अस्ति. तस्य पकारस्य लोपः भवति. हलन्त्यम् इति सूत्रेण तस्य लोपः भवति. ति इति अवशिष्यते. पर्शति इति भवति.
उत्तमं, तदेव. उपधायां लघु इक् वर्णः लघु ऋकारः अस्ति इति कारणतः पुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा पर्श. किमर्थं चेत् धातुः भ्वादिगणीयः. धातोः परं कर्तरि शप् इत्यनेन शपायाति. कर्तर्धकसार्वधातुकप्रत्ययः तिप्रत्ययः अस्ति इति कारणतः भ्वादिगणे धातु तिङ्प्रत्ययोः मध्ये शपायाति. शप् इत्यस्य अवशिष्टभागः आ अस्ति. अत्र पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भूत्वा पर्श भवति. तत्र उरण्ड्रपरः इत्यस्य कार्यमपि अस्ति. पार्श्वयोगः शप् इत्यस्मात् आगतं पार्शाति इति रूपं. साधु भगिनी धन्यवादाः. इदानीं नरेश महोदय भवान् वदतु.
अत्र नखान् नखन् अस्ति. अत्र प्रथम तु उपदेशे अजनुनासिक अन्तिम अकारस्य यत्संज्ञा भवति. तदुपरान्त नख नख् स्थीयते. नख् तदा आदौ मूर्धन्य नकारः अस्ति. अत्र नत्वं भवति. नत्वं भवति चेत् अन्तिमरूप नक् स्थीयते.
धातुः भवादिगणीयः.
भवादिगणे अस्ति. अत्र विकरणप्रत्यय शप् अस्ति. तत्र शकारस्य पकारस्य इत्संज्ञा भवति लोपः भवति विकरणप्रत्ययः अस्थीयते अस्ति चेत् नक् योग अयोगति नख नखति
उत्तमम् अत्र खकारोत्तरवर्ती अनुनासिक अकारस्य इत् संज्ञालोपश्च उपदेशजनुनासिक इत् तस्य लोपः द्वाभ्यां सूत्राभ्यां हकारोत्तरवर्ती अनुनासिक अकारस्य इत् संज्ञालोपश्च पश्चात् नोनः इति सूत्रेण दन्त्यनकारादेशः तेन लौकिकधातुः नख् दन्त्यनकारयुक्तं रूपं तत्र आयाति अग्रिमधातोः प्रसङ्गे वदतु
रगे अस्ति अत्रापि गकारो वर्ति अत्र एकार अनुनासिक अस्ति उपदेशे अजनुनासिक अत्र एकारस्य इत्संज्ञा भवति अतः रग् स्थीयते रग् अस्ति लौकिकरूपं रग् अस्ति द्वादिगणे अत्रापि विकरणप्रत्यये शप् अस्ति तत्र शकारस्य पकारस्य इत्संज्ञा भवति लोपः भवति रग् योग अयोगति रगति एतत् आत्मनेपदी अथवा परस्मैपदी अहं न जानामि
रगति
परस्मैपदी रगति अन्तिमरूपम् अस्ति क्रियापदानि
साधु महोदय तदेव अत्र अनुनासिक एकारः इत् संज्ञकः इदित् नास्ति एदित् अनुनासिक एकारस्य इत् संज्ञा भवति अस्मिन् धातौ अग्रिमधातुः प्लुञ् गतौ इत्यस्मिन् अर्थे अस्ति प्लुञ् इति धातुः भवानेव वदतु
प्लुञ् अत्र अन्तिम धातु हलन्त् अस्ति हलन्त्यं सूत्रेण तस्य इत्संज्ञा भवति लोपः भवति प्लु स्थीयते प्लु मौलिकधातुः अस्ति अत्र तदपि अहं चिन्तयामि भवादिगणे अस्ति भवादिगणे अस्ति चेत् प्लु योग शप् योग अति शप् शकारस्य पकारस्य इत्संज्ञा भवति प्लु योग अयोगति अत्र अन्तिम उकारः अस्ति तस्य शप् कारणेन अत्र गुणकार्यं भवति
केन सूत्रेण
सार्वधातु अर्धधातुकयोः
उत्तमं धातुः इगन्तधातुः इक् प्रत्याहारस्थवर्णः उकारः धातोः अन्ते अस्ति इति कारणतः शप् इत्यस्मिन् शित्वमस्ति पित्वमपि अस्ति इति कारणतः शपं निमित्तीकृत्य प्लु इति लौकिकधातौ सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति अग्रे वदतु
प्लु तत्र प्लो भवति प्लो योग अकार योगति अत्र प्लो योग प्लव भवति तत्र यान्तवान्तसन्धि भवति प्लव योगति प्लवति
आत्मनेपदी धातुः
ओ क्षम्यताम् अत्र प्लवते भवति
उत्तमम् एकवारं धातुं पश्यन्तु धातोः रूपं परिशीलयामश्चेत् अत्र प्लुञ् इति दत्तमस्ति इत्युक्ते कवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अस्ति तादृशरीत्या धातोः रूपम् अस्ति चेत् सुलभतया अवगन्तुं शक्नुमः यत् सः धातुः आत्मनेपदी धातुः अग्रिमे अध्याये सः एव विषयः आयास्यति धातोः अन्ते ण्यकारः अस्ति चेत् अनुदात्तनित आत्मनेपदम् इति सूत्रेण सः धातुः आत्मनेपदि धातुः भवति इति अग्रिमे पाठे दत्तमस्ति. धातोः रूपम् अत्र प्लुञ् अस्ति, अनुबन्धवर्णः अत्र ञकारः अस्ति, अतः हलन्त्यम् इत्यनेन तस्य इति संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति. मम आशयः अत्र एवम् अस्ति यत् धातोः औपदेशिकरूपं परिशील्य वयम् अवगन्तुं शक्नुमः यत् धातुः आत्मनेपदी धातुः. अग्रिमे पाठे सः एव विषयः. साधु महोदय, धन्यवादाः. अत्र रूपं प्लवते. रोहिणी भगिनी वदतु.
रश्रु इति धातु धातोदेः शासा इति सूत्रेण षत् सा भवति, सु इति भवति, अनुनासीय नास्ति इति कारणेन अनुबन्धलोपं न भवति, षु एव अवशिष्यते.
धातुः अदादिगणे अस्ति चेत् किं भवति, भुवादिगणे अस्ति चेत् किं भवति, वक्तुं शक्नोति वा?
अदादिगणे शपः लोपः भवति, सुयोग ति इति भवति, सुति इति रूपं भवति.
अत्र तिप् प्रत्ययः अस्ति. तिप् इत्यस्मिन् पित्वमस्ति, पित्वमस्ति इति कारणतः प्रथमपुरुष एकवचनरूपं, मध्ये शप् नास्ति, शपः लुक् भवति. अत्र सुयोगः तिप् इति स्थितिः अस्ति. तिप् प्रत्ययः पित् अस्ति, पित्वमस्ति इति कारणतः गुणकार्यं भवितुं शक्नोति अदादिगणे.
तत्र सु उकारस्य गुणः भवति ओकारः.
विशिष्टसूत्रेण सौति इति रूपं सिद्ध्यति इति मम चिन्तनम् अस्ति तत्र.
न जानामि.
स्तु इति धातोः रूपं भवति, जानाति खलु? स्तु धातुतः स्तौति, स्तौति अस्ति खलु? एवमेव अत्रापि सु धातोः रूपं सौति. तत्र विशिष्टं सूत्रम् अस्ति. भुवादिगणे अयं धातुः अस्ति चेत् रूपं कथं भवति?
सुयोग शप् योग तिप् भवति. शप् इत्यस्य शक्वजिते इति सूत्रेण शकारस्य इत्थं भवति. हलन्ति इति सूत्रेण पकारस्य अपि इत्थं भवति. तस्य लोभानन्तरम् आ अवशिष्यते. सुयोग आ योग तिप् भवति. तत्र शप् इत्यस्य कारणेन गुणं भवति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण सु सो भवति. सो योग आयोग ति भवति. एचो इति सूत्रेण अवादेशः भवति. सोवति इति भवति.
सवति
सवति.
साधु भगिनि, अग्रिमधातुः ध्रुव अस्ति, करोतु.
ध्रुव अत्रापि अनुनासीयवर्णः नास्ति. तस्मात् लोपः न भवति. द्रु इत्यस्य द ऋ उपधायां रकारः अस्ति, तस्मात् द्रु इत्यस्य दीर्घत्वं भवति.
न भगिनि, धातुः हलन्तधातुः नास्ति खलु?
क्षम्यताम्,
अत्र उपधायां च कार्यं नास्ति. ध्रु इति धातौ अनुबन्धवर्णाः न सन्ति इति एका वार्ता. अपि च लौकिकधातोः रूपं ध्रुव अस्ति, धातुः भुवादिगणे अस्ति. इदानीं वदतु.
ध्रुवयोग शप् योग तिप् भवति. कर्तरि शप् इति योगेन शप् भवति. शकार शप् इत्यस्य अनुबन्धलोपानन्तरम् आ एव अवशिष्यते. तिप् इत्यस्य अपि हलन्त्यम् इति सूत्रेण पकारस्य लोपानन्तरं ति अवशिष्यते. ध्रुवयोग आयोग ति भवति. तिप् इति पकार पित् अस्ति, तस्मात् सार्वधातुक आर्धधातुकयोः इति योगेन गुणं भवति. द्रौ योग आयोग ति भवति. अवादेशं भवति. द्रवति इति रूपं भवति.
उत्तमं, साधु भगिनि. द्रवति अत्र अनुबन्धवर्णाः न सन्ति, गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इत्यनेन. किमर्थं चेत् धातुः ईगन्तः पश्चात् यचोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिकार्यमपि भूत्वा लटीरूपं ध्रवति. साधु भगिनी, तदेव उत्तमं. गोमती भगिनी, भवती करोतु.
धातुः चक्क अस्ति. अत्र उपदेशे अजाननासिक इति सूत्रेण अनुनासिक अकारस्य इत्संज्ञा भवति, तस्य लोपः इति लोपः अपि भवति. चक् इति अस्ति चुरादिगणीयधातुः अस्ति न भगिनि? चक् अतः णिच् अस्ति. णिच् तत्र चुटु इति सूत्रेण नकारस्य इत्संज्ञा भवति. चकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भूत्वा तस्य अपि लोपः भवति. इ तिष्ठति, चक् योगः इ भवति. अत्र उपधाय अवर्णः नास्ति, अन्ते इक् वर्णः नास्ति, अतः गुणकार्यं न भवति. चक्कि इति सिद्धधातुः अस्ति. चक्कि चक्की योगः चुरादिगणीयधातुः शप् आयाति. चक्की योग अ भवति. शप् इत्यस्य शक्वत् अधीते अनगरं पकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. अ तिष्ठति, चक्की योग अ. अत्र गुणकार्यं चक्की इकारान्त धातुः अस्ति. अनन्तरं सार्वधातुक प्रत्ययः षट् अकारः अस्ति. अतः अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भूत्वा चक्के योग अ इति भवति. चक्के योगः अ अत्र सन्धिकार्यं भवति. एचोयवायावः इति सूत्रेण चक्कय अ भवति. अनन्तरं लट् रूपं टिप् अस्ति. चक्कय इति अङ्गमस्ति. चक्कय अङ्गम् अनन्तरं ति चक्कयति वर्णमेलनमेव, तदेव रूपं चक्कयति इति रूपम्.
उत्तमं, साधु साधु. अत्र चक्कि इति नूतनधातुः, चक्कि इति णिजन्तधातुः. धातुः चुरादिगणे अस्ति इति कारणतः स्वार्थे अपि णिच् विधीयते. लौकिकधातुः चक्कि चक्कय इति अङ्गं भवति तिप्रत्ययं निमित्तीकृत्य, अपि च ककारद्वयेन लिख्यते इदं रूपं. चक्कयति इत्यत्र ककारद्वयं लेखनीयम्. अग्रे करोतु.
अग्रे बधम् इति धातुः. अत्र अकार उपदेश्य अजनुनासिक इति सूत्रेण अनुनासिक अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः अपि भूत्वा बुध इति सिद्धधातुरूपं भवति. अनन्तरं बध इति रूपं भ्वादिगणीयधातु वा?
धातुः चुरादिगणे अस्ति अपि च भुवादिगणे अस्ति. भुवादिगणे तु अयं धातुः विशिष्टधातुः. अस्य धातोः रूपं बीभत्सते. तत्र सन् प्रत्ययस्य योजनेन बीभत्सते. तत्र एकं विशिष्टं सूत्रम् अस्माभिः ज्ञातव्यम्. सूत्रं किमित्युक्ते मान बध दान शान्भ्यो दीर्घश्चाभ्यासस्य. त्रण सन् प्रत्ययस्य योजनं भवति. इत्युक्ते धातुः तु भुवादिगणे अस्ति, किन्तु विशिष्टधातुः अस्ति. द्वादश सनादिप्रत्ययाः सन्ति, तेषु अन्यतमप्रत्ययः सन् प्रत्ययस्य योजनेन लट्लकाररूपं बीभत्सते इति रूपं. तेन सूत्रेण चतुर्षु धातुषु सन् प्रत्ययः विहितः भवति. कथम् इत्युक्ते बद्ध धातुतः बीभत्सते, मानधातुतः मीमांसते, दानधातुतः दीदांसते इत्यादीनि रूपाणि विशिष्टसूत्रेण भवन्ति. बाधयति इति चुरादिगणीयरूपम् अस्ति, तस्मिन् विषये वदतु.
चुरादिगणीयधातु अत्र सूत्रं मान बध दान शान्भ्यो दीर्घश्चाभ्यासस्य इति सूत्रं न भगिनि?
आम्,
मान बध दान अस्ति. अनन्तरं बध इति चुरादिगणीयधातुः, बध चुरादिगणीयधातुः. अत्र णिच् स्वार्थे णिच् भवति. णिच् अत्र इ एव तिष्ठति. अत्र उपधायाम् अकारः अस्ति, अतः अतो उपधायाः इति सूत्रेण तस्य वृद्धिः भवति. बाध इति भवति. बाधयोग इ बाधि इति नूतनधातुः अस्ति बाधि योगः शप् बाधि योगः अ बाधे योगः अ बाधै योगः अ बाधया इति अङ्गं तिप् प्रत्ययस्य तिप् बाधया बाधया योगः तिप् बाधयति वर्णमेलनमेव भगिनि तत्र किमपि कार्यं नास्ति बाधयति
उत्तमं भगिनि बाधयति पश्यन्तु अत्र धातुः अदुपधधातुः इत्युक्ते उपधायाम् अकारः अस्ति अपि च धकारोत्तरवर्ती अनुनासिक अकारः इत् संज्ञकः अस्मिन् धातौ अकारः इत् संज्ञकः इकारः इत् संज्ञकः अस्ति चेत् नुमागमः भवति धातुः इदित् धातुः नास्ति बद्धधातुः भिन्नः बन्धधातुः भिन्नः अत्र धातुः बद्ध अस्ति बद्धधातोः रूपं भुवादिगणे बीभत्सते बन्ध अस्ति चेत् बध्नाति अग्रे अपि भवती एव करोतु
क्षम्यतां भगिनि एकः प्रश्नः चक्कम् अस्ति भवती उक्तवती अन्तिम द्वे ककारः लिख्यते कथं लिख्यते अत्र प्रथम तु उपदेशे अजनुनासिक अकारस्य इत्संज्ञा भवति तत्र च ककार द्वे ककारः अस्ति कथं लिख्यते
चकारात् परम् अकारः अस्ति अकारस्य अनन्तरं ककारद्वयं लेखनीयं चक्कयति तत्र ककारद्वयं लिखित्वा एव लेखनीयं कथम् इत्युक्ते
अहं चिन्तयामि द्वे ककारः हलन्त अस्ति तत्र कोऽपि अकार नास्ति अतः लिख्यते
अन्ते अकारः अस्ति चेत् दण्डः न लेखनीयः तत्र दण्डः दृश्यते अधोभागे खलु
आम्
स्ट्रोक् दृश्यते खलु
आम्
चक् एव लौकिकधातोः रूपं लौकिकधातौ अधोभागे दण्डः दृश्यते
अहं चिन्तयामि अतः ककार तत्र ककार अकारः अस्ति चेत् चक् अस्ति परन्तु अत्र अकारः तु इत्संज्ञा भवति द्वे ककार हलन्तककार अस्ति अहं न जानामि कथं लिख्यते
लेखितुं शक्यते महोदय अन्तिमवर्णः अकारः नास्ति चेत् अधोभागे स्ट्रोक् द्रष्टुं शक्यते
अस्तु अस्तु च क क द्वे ककारः हलन्त अस्ति विद् स्ट्रोक्
भगिनि टु नद्यौ इति धातुः अस्ति गोमति भगिनि
टु नद्यौ इति धातुः अत्र टु अपि इत्संज्ञा अस्ति आदिर्णि टुडवः इति सूत्रेण टु इति समूहस्य वर्णसमूहस्य इत्संज्ञा भवति अतः तस्य लोपः सूत्रेण तस्य लोपः अपि भवति नदीं नदीम् अत्र इकारः अनुनासिक इकारः इत्संज्ञा इत् अस्ति अतः उपदेशजननासिक इति सूत्रेण तस्य लोपः अपि भवति परन्तु अनन्तरं धातोः किमपि कार्यं भवति एककार्यमस्ति धातुः इदित् अस्ति चेत् तत्र नुमागमः भवति इदितो नुं धातुः इति सूत्रेण इदितो धातोः नुमागमः भवति अत्र नद एव तिष्ठति इत् लोपानन्तरं नद इदित् धातुः अस्ति अतः तत्र नुमागमः भूत्वा नुमागमः मित् अस्ति मिदच्चोन्त्यात् परः इति सूत्रेण तत् मकारः नकारः न य द मध्ये भवति न अनन्तरम् अकारः अस्ति तस्य अनन्तरमेव नुमागमः भवति नन्द इति रूपं भवति अनन्तरं नश्च पदान्तस्य झलि इति नकारस्य अनुस्वारः भवति. एतत्तु पदं नास्ति, अतः नश्च पदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारः भवति, नन्द इति भवति. यदा अनुस्वारः आगच्छति तदा अनुस्वारस्य ययि परसवर्णः इति परसवर्णः भवति, दकारस्य परसवर्णः भवति नकारः. अतः रूपं भवति नन्द एव, नन्द इति रूपं धातु गणं
भवादिगणे अस्ति, अपि च परस्मै पदी अस्ति.
नन्द, नन्द धातु, नन्दयोगः योग शप् नन्दयोग योग तिप् कर्तृते सार्वधातुके अस्ति, अतः विकरणरूपेण शप् आयाति. नन्दयोगः शप् शप् अत्र अ एव तिष्ठति इस्सज्ञलोपानन्तरं. नन्द तत्र किमपि गुणकार्यं न भवति, अतः नन्द इति अङ्गं भवति तिप् कृते. तत्रापि किमपि गुणकार्यं किमपि कार्यं न, ते केवलं वर्णमेलनं नन्दति इति रूपं भवति नन्दति.
उत्तमं. धातोः रूपं कथमस्ति उपदेशावस्थायां? तु नद्यो धातुः इदित् धातुः, अपि च आदिर्निटुडवः इति संज्ञासूत्रेण टु इति वर्णसमुदायस्य इत् संज्ञा भवति, तेन तत्र लौकिकधातुः नन्द धातुः इदित् अस्ति. अतः इदितोनं धातोः इत्यनेन नौमागमः भूत्वा लौकिकधातोः रूपं नन्द, लट्टिरूपं नन्दति. साधु भगिनी उत्तमरीत्या कृतवती. इदानीं दर्शना भगिनी भवती करोतु.
युच्छ, युच्छ अस्ति धातुः, गणः अहं न जानामि, पश्यामि. तर्हि उपदेशे जनुनासिक इति सूत्रेण अन्तिम अनुनासिक अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपः जायते, तर्हि युच्छ अवशिष्यते. अन्यत् कार्यं नास्ति अत्र, यतोहि श नास्ति, ण नास्ति, अपि च ह्रस्व तत्र दीर्घत्वमपि दीर्घत्वस्य प्रसङ्गः अपि नास्ति. तर्हि सिद्धा अस्ति कार्यस्य कृते. युच्छ भ्वादिगणे अस्ति, तदर्थं शप् इति प्रत्यय आयाति. शप् तत्र लशक्वतद्धिते इति सूत्रेण शकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपः जायते. हलन्त्यम् इति सूत्रेण पकारस्य लोपः जायते. तर्हि युच् योगः अवशिष्यते. तत्र शप् षित् अस्ति, पित् अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकं संज्ञा प्राप्नोति. तर्हि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणस्य प्रसङ्गः अस्ति, परन्तु अङ्गे तु इगन्तं नास्ति, अङ्गम् इगन्तं नास्ति, अपि च उपधायां चकारः अस्ति. तर्हि तत्रापि किमपि कार्यं तत्रापि गुणस्य किं प्रसङ्गः नास्ति, प्राप्तिः नास्ति इति वदनीयं किल भगिनि?
धातुः लघुपदधातुः नास्ति, इगन्तधातुः अपि नास्ति.
तर्हि युच्छ योगः अ युच्छ इति भवति. परस्मैपदी अस्ति इति अहं मन्ये. परस्मैपदी अस्ति, तर्हि टिप् आयाति लट्लकारस्य एकवचनं प्रथमपुरुषस्य प्रत्ययः. तिप् तत्र हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा भूत्वा तस्य लोपः जायते. तर्हि युच्छ योगः ति. अत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकं प्रत्ययः प्राप्नोति, पित् अस्ति, तदर्थं सार्वधातुक आर्धधातुकयोः इत्यनेन गुणस्य प्रसङ्गः अस्ति, परन्तु अन्ते अन्ते अ अस्ति, तर्हि इक् वर्णः नास्ति, अपि च उपधायां चकारः अस्ति, स्वरः नास्ति तर्हि युच्छति इति भवति रूपः वर्णमेलनेन.
तदेव सोपानेन सम्यक् उक्तवती. अत्र अनुबन्धवर्णानां निष्कासनम् एकमेव कार्यम्. चकारोत्तरवर्ति अनुनासिक अकारस्य इति संज्ञा भवति. प्रमादे इत्यस्मिन् अर्थे अयं धातुः अस्ति. लटीरूपं युच्छति. पूर्वस्मिन् धातौ तु नद्यौ अस्ति खलु. समृद्धौ इत्यस्मिन् अर्थे तु नद्यौ इति धातुः अस्ति. तत्र रूपं नन्दति बहु प्रसिद्धधातुः सः साधु. भवत्याः पार्श्वे अन्यधातवः सन्ति वा? स्क्रीन् शाट् अहं प्रेषितवती. प्रथमधातोः रूपम् उर्वी अस्ति. हिंसायाम् इत्यस्मिन् अर्थे वदतु.
अहं प्रयत्नं करोमि भगिनि. ऊर्वी इति इति धातुः अस्ति. तत्र अन्ते अनुनासिक ईकारस्य इत्संज्ञा भवति. उपदेशे जनुनासिक इत्यनेन तर्हि उर्व उर्व अवशिष्यते. अत्र दीर्घत्वं भवितुम् अर्हति, परन्तु अहं सूत्रं न जानामि भगिनि, यतोहि अहम्
अस्मिन् करपत्रे वयं किं पठितवन्तः? प्राकृतिकानि कार्याणि चत्वारि कार्याणि सन्ति. सत्वं, नत्वं, नुमागमः, उपधादीर्घः. उपधायाञ्च इति सूत्रेण उपधादीर्घत्वं भवति. उपधायाञ्च इति कार्यं भवितुं निकषाः के? एकवारं विवृणोतु कण्डिशन्स्.
कण्डिशन्स् अत्र ऊर्वस्ति, तर्हि धातोः इदानीम् अहं करपत्रं पुरतः स्थापितवती. धातोः उपधाभूतयोः रेफवकारयोः हल् परयोः इकः दीर्घः भवति इति. तर्हि अत्र रेफ अस्ति उपधायाम्, उपधायां रेफः अस्ति उर्व. तर्हि दीर्घत्वं भवितुम् अर्हति उपधायाञ्च इति सूत्रेण. तर्हि ऊर्व भवति रूपः. ऊर्व सोरि रूपं, रूपम् ऊर्व भवति. अन्यत् किमपि कार्यं नास्ति इति अहं मन्ये. अपि च एतत्तु वादिगणे अस्ति किं भगिनि?
भ्वादिगणीयः.
तर्हि भ्वादि भ्वादिः गणे अस्ति, तदर्थं शप् प्रत्ययः आयाति. तत्र शकारस्य अपि च पकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन, तस्य लोपः जायते, अवशिष्यते ऊर्व ऊर्व भवति. ऊर्व भवति. अत्र अत्र गुणस्य प्रसङ्गः अस्ति, परन्तु अन्ते तु वकारः अस्ति. अपि च उपधायां रेफः अस्ति. तर्हि गुणस्य गुणस्य प्रसक्तिः नास्ति. ऊर्व भवति. ऊर्वः ऊर्व योग तिप् परस्मैपदी अस्ति इति मत्वा. तत्र पुनः पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन, तस्य लोपः जायते, ति अस्ति. तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकं प्रत्यय सार्वधातुकं संज्ञा प्राप्नोति. तत्र गुणस्य प्रसक्तिः अस्ति, परन्तु अत्र अकारस्य अकारः अस्ति अन्ते, इकवर्णः नास्ति. अपि च तत्र उपधायाम् उपधायामपि इकव वर्णः नास्ति. तर्हि ऊर्वति इति वर्णमेलनेन रूपं प्राप्नुमः.
साधु भगिनी, तदेव हिंसायाम् इत्यस्मिन् अर्थे धातुः अस्ति. वकारोत्तरवर्ति अनुनासिक ईकारः इति संज्ञकः अस्मिन् धातौ. उपधायाञ्च इति सूत्रेण उपधादीर्घत्वं भवति. अत्र धातौ निकषाः के इत्युक्ते धातुः हलन्तधातुः. अनुबन्धलोपानन्तरं धातुः रूपम् उर्व इत्युक्ते धातुः हलन्तः. धातुः हलन्तः भवेत् तस्मात् पूर्वम् उपधायां रेफः अथवा वकारः भवेत्. रेफवकारयोः पूर्वं लघु इक्वर्णः स्यात्. लघु इक्वर्णः रेफवकारयोः पूर्वम् अस्ति चेदेव उपधायां च इति कार्यं भवति. इदं कार्यं भवितुं परनिमित्तम् अनावश्यकं, निमित्तम् अनपेक्ष्य इदं कार्यं भवति. लटिरूपम् ऊर्वति. अन्ये केचन औपदेशिकधातवः अत्र सन्ति, तेषां लौकिकरूपाणि साधनीयानि इति स्क्रीन्शाट् प्रेषितवती. ई व्याप्तौ इत्यस्मिन् अर्थे अस्ति. धातुः पुरतः अस्ति चेत् पश्यति चेत् इतोपि स्पष्टतया वक्तुं शक्यते. नरसिंह हेग्डे महोदय वदतु.
इवि इति धातु व्याप्तौ, अत्र अनुनासिकैकारस्य इसंज्ञा भवति, तस्य लोपः इत्यनेन लोपः भवति. इव् इति अवशिष्यते. अत्र अनुनासिक ऐकार अस्ति, अतः इदुनुं धातु इत्यनेन नकार नुमागमः भवति. इव् इति भवति. अनन्तरं सन्धिकार्यमस्ति, नश्चापदान् तस्य जलेतरेण अनुस्वारः भवति. अनुस्वारस्य सवर्ण इत्यनेन उपकारस्य उपरि अनुनासिकचिह्नम् आयाति. इव् इति भवति. अनन्तरं गणाङ्कितमस्ति महोदय, गणं भवादिगण भवादि.
पश्यतु महोदय, नश्चापदान्तस्य झलि कार्यम् अस्ति वा अत्र?
अत्र अत्र नास्ति, वकार अस्ति. परन्तु यवले इति यकार वकार लकार अस्ति चेत् तत्र आयाति न महोदय? यत्र करपत्रे उदाहरणमासीत् संयम संवाद इति, तत्र उदाहरणमासीत् त्रय उदाहरणं, संलाप संयम संवाद इति त्रय उदाहरणम् आसीत् तत्र.
धातुः इदित् धातुः अस्ति, इदित् धातुः अस्ति इति कारणतः इदितोनुं धातोः इति सूत्रेण मेदचोन्त्यात् परः इति परिभाषासूत्रेण नकारः आयाति. सन्धिकार्यद्वयम् अत्र भवति वा इति चिन्तनीयम्. नश्चापदान्तस्य झलि इति सूत्रेण झलि परे एव कार्यं भवति. अत्र नकारात् परं वकारः अस्ति, वकारः झल् वर्णः नास्ति खलु?
सम्यक् सम्यक्. अस्तु, सन्धिकार्यं नास्ति. इव् इति भवति, तत्र गणाङ्कितम् अस्ति, गणं भवादिगणः अस्ति,
भवादिगणे
तत्र शप् अस्ति. शप् इत्युक्ते अ अस्ति, अतः इन्वति इति रूपम्.
इन्वति इति रूपं भवति. साधु महोदय, धातुः व्याप्तौ इत्यस्मिन् अर्थे अस्ति. अत्र वकारोत्तरवर्ती अनुनासिक इकारः इति संज्ञकः, अतः धातुः इदित् धातुः, अतः नुमागमः भवति. तेन इन्व इति रूपं सिद्ध्यति. नकारात् परं वकारः अस्ति, वकारः झल् प्रत्याहारस्थवर्णः नास्ति, झलि नास्ति. नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारादेशः, तस्मात् परं परसवर्णादेशः इति कार्यद्वयम् अत्र नास्ति. किमर्थं चेत् वकारः झल् वर्णः नास्ति, अतः सन्धिकार्यद्वयम् अत्र न भवति. यः नकारः नोमागमरूपेण अत्र मेदच्चोन्त्यात् परः सूत्रेण आगतः, सः नकारः यथावत् तिष्ठति, तत्र सन्धिकार्यद्वयम् इत्यस्य आवश्यकता नास्ति. आहत्य लटीरूपम् इन्वति. अग्रिमधातुः स्टुञ् अस्ति, वदतु.
अग्रिमधातुः स्टुञ् अस्ति, अत्र अन्तिमकारस्य भवति. ष्टु इति अवशिष्यते. आदिमशकारः अस्ति, धात्वादेश स इत्यनेन तत् सकारः भवति. यदा सकारः भवति चेत् तत्र तुकारः अपि तुकारः भवति, स्तू इति भवति. स्तू इति भवति. गणं कथमस्ति?
अदादिगणः.
अदादिगण अदादिभ्यः तत्र विस्मृतवान् अहं व्याकरणप्रत्यय.
अदिप्रभृतिभ्यः शपः, अदिप्रभृतिभ्यः शपः,
तत्र लोपः जातः. तत्र लोपः भूत्वा तत्र कोऽपि नास्ति अत्र अदादिगणे. अतः ष्टु योग ति, ति इति सार्वधातुकप्रत्ययः अस्ति, अतः अन्ते अत्र उ अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति. ष्टु इति ष्टु नास्ति, स्तु स्तु स्तो भवति, स्तो भवति, स्तोति.
अत्र एकं विशिष्टं सूत्रम् आवश्यकं महोदय. अत्र स्तौति इति रूपं सिद्ध्यति. अयं धातुः दादिगणीयः, अत्र विशिष्टं कार्यम् अस्ति. अत्र बहु किमपि चिन्तनम् आवश्यकम्. एकं रूपम् अस्ति स्तौति, अन्यद् रूपम् अस्ति स्तवीति. स्तवीति इति रूपमपि अस्ति, विकल्पेन तत्र अन्यद् रूपमपि अस्ति. नूतनानि सूत्राणि अस्माकं कृते आवश्यकानि तदवगन्तुं. स्तौति इति परस्मैपदिरूपम् अस्ति, स्तुते इति आत्मनेपदिरूपमपि अस्ति. अत्र धातोः रूपं दृष्ट्वा किम् अवगन्तुं शक्नुमः, वदतु.
स्वरित स्वरितनेत कर्तव्यप्रया क्रियाफले इत्यनेन स्वरितदासु स्वरित
उत्तमं धातौ चवर्गीय अन्तिम अनुनासिकव्यञ्जनम् इति संज्ञकः अस्ति. अग्रिमे अध्याये एतदपि लिखितम् अस्ति. स्वरितणित कर्तृभिप्राये क्रियाफले इति सूत्रेण धातुः उभयपदी भवति. तदर्थमेव स्तौति इति एकं रूपम् अस्ति, स्तुते इति आत्मनेपदीरूपमपि अस्ति. धातोः अन्ते ञकारः इति संज्ञकः अस्ति चेत् सः धातुः उभयपदी भवति. अपि च अत्र विशिष्टचिन्तनमपि महोदयेन उक्तमेव. अत्र शास्त्रीयचिन्तनम् अपि च एकः प्रवादः अपि अस्माभिः पठितं. निमित्तापाये नैमित्तिकस्यापि अपायः. वदतु.
निमित्तपाये नैमित्तिकस्यापि अपायः. निमित्तपाये नैमित्तिकस्यापि अपायः
इति प्रवादः अस्ति. प्रवादेन अत्र समर्थनं भवति, किन्तु शास्त्रीयचिन्तनमपि अस्ति इति अस्माभिः पठितम्. अत्र धात्वादेः शः सः सूत्रेण यदा शकारः दन्त्यसकारः भवति तदा ष्टुनाष्टुः इत्यस्य अवसरः एव न भवति. धात्वादेः शः सः इति सूत्रं सपादसप्ताध्याय्याम् अस्ति, पूर्वसूत्रमस्ति. ष्टुनाष्टुः इति सूत्रं परसूत्रमस्ति. ष्टुनाष्टुः इति सूत्रं त्रिपाद्याम् अस्ति. अत्र पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः अस्ति इति कारणतः पूर्वसूत्रं प्रति ष्टुनाष्टुः इति सूत्रम् असिद्धं भवति. अतः पूर्वसूत्रस्य कार्यमेव भवति. अतः अत्र धात्वादेः शः सः सूत्रेण आदौ स्थितस्य मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आयाति. धातोः मूलरूपं कथम् अस्ति? शकारः अपि च तकारः एव अस्ति तत्र, न तु मूर्धन्यटकारः. शकारस्य प्रभावेण एव ष्टुनाष्टुः इति कार्यं भूत्वा मूर्धन्यटकारः आगतः. धातोः रूपं धातुपाठे एवं रीत्या लिखितम् अस्ति. धातुपाठे ष्टुञ् इति रूपं दृश्यते. कथम् इत्युक्ते ष्टुनाष्टुः इति सूत्रेण शकारस्य प्रभावेण तत्र स्थितस्य तकारस्य स्थाने मूर्धन्यटकारः आगतः. मूर्धन्यटकारयुक्तं रूपं धातुपाठे दृश्यते. लौकिकधातोः रूपसाधनवेलायां ष्टुनाष्टुः कार्यं न भवति. केवलं धात्वादेः शः सः कार्येण एव शकारस्य सकारः भवति. तत्र तकारः अस्ति. स्तु इति लौकिकधातुः दन्त्यसकारयुक्तं रूपं. स्तु इति रूपम् अस्ति. स्तौति इति लटीरूपम्, अदादिगणीयधातुः. अतः अत्र शपः लुक् भवति. अपि च एकं नूतनं सूत्रम् आवश्यकं. तदर्थमेव तत्र गुणकार्यं न भवति, वृद्धिकार्यं भवति. अग्रे सत्यभामा भगिनी भवती वदतु.
स्नै इति धातु धात्वातेः सहसः इति सत्त्वं तेन अहं चिन्तयामि प्रथमं शकारस्य प्रभावेन नकारस्य नकारः भवति इति. तदनन्तरं शकारस्य स्थाने सकारः आदेशरूपेण आगच्छति. इदानीं सकारः नकारः स्नौ इति भवति.
स्नौ वा तत्र किमस्ति?
स्नौ इति अस्ति पूर्वं. इदानीं यदा सत्त्वं भवति शकारस्य धात्वादेः शः सः इति सूत्रेण तत्र सकारादेशः भवति. स्नौ इति रूपं भवति. नकारस्य निमित्तं शकारः अस्ति खलु भगिनि?
स्नौ नास्ति, स्नै इति.
स्नै एव, स्नै एव अस्ति. प्रिण्ट् औट् मध्ये स्नै एव अस्ति. तत्र ष्टु अस्य उकारः तत्र मध्ये आयाति. स्नै एव अस्ति वेष्टने शोभायाञ्च.
भगिनी एकवारं पश्यतु, श्नै अस्ति. श्नै इति कथनेन यथा भवत्या उक्तं धात्वादेः शः सः सूत्रेण शकारस्य सकारः भवति. यदा शकारस्य सकारः भवति तत्र पूर्वं नकारः एव आसीत्. तदर्थं लौकिकधातोः रूपं स्नै भवति खलु? किन्तु धातुपाठे धातोः रूपम् एवं रीत्या श्नै इति लिखितम् अस्ति. किमर्थं चेत् तत्र शकारस्य प्रभावेण ष्टुनाष्टुः सूत्रेण तत्र स्थितस्य दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आदिष्टः भवति. श्रणै इति रूपं धातुपाठे अस्ति, किन्तु लौकिकरूपसाधनवेलायां धात्वादेः शः सः कार्यमेव भवति इति कृत्वा लौकिकधातोः रूपं स्नै अस्ति. स्नै इति धातुः भुवादिगणे अस्ति चेत् तस्य रूपं किं भवति?
भुवादिगणे अस्ति चेत् स्नायियोगः भुवादिगणस्य विकरणप्रत्ययः शप् अस्ति, चकारस्य पकारस्य इत्संज्ञा भूत्वा अकारः एव तिष्ठति. इदानीं स्नायियोगः आयोगः ति इति अस्ति. अत्र स्नै इत्यत्र यद् ऐकारः अस्ति खलु, ऐकारः योगः आ अकारः, तयोः सन्धिकार्यं भूत्वा आ आदेशः भवति यचो वायावः इति सूत्रेण. इदानीं स्नाय इति रूपं भवति, लट् लकार प्रथमपुरुषविग्रहं प्रत्ययः अस्ति, तिङ् प्रत्ययः, स्नायति इति रूपं रस्मैपदिरूपमस्ति.
उत्तमं भगिनि, तदेव स्नायति इति रूपम् अस्ति. वयं गै धातोः रूपं जानीमः खलु, गै धातुतः गायति, ध्ययि धातुतः ध्यायति, एवमेव अत्र धातुः स्नै अस्ति. स्नै धातुतः स्नायति परस्मैपदिरूपं, भवादिगणीयधातुः वेष्टने इत्यस्मिन् अर्थे अस्ति. अत्रापि निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादस्य स्मरणम् अपि च शास्त्रीयचिन्तनम् एकवारं स्मर्तव्यं खलु.
आम् भगिनि,
अग्रे करोतु.
इदानीं ष्ठला, ष्ठला अत्र लकारस्य अनुनासिक अकारस्य इत्संज्ञा भवति उपदेशे अच् अनुनासिक इत् इति सूत्रेण. तदनन्तरं तस्य लोपः इत्यनेन लोपः भवति. इदानीं ष्ठल् अस्ति, अत्र धात्वादेः षहसः इत्यनेन सकारः भवति. था स्थल् इति रूपं, ठकारस्य थकारः अपि भवति. भगिनि अहं चिन्तयामि एतत् थकारः एव पूर्वं आसीत् इति.
मूलस्थित्यां रूपं कथमस्ति? पूर्वस्थित्यां षकारः अस्ति, महाप्राणधकारः अस्ति, तादृशं रूपं मूलस्थित्याम् अस्ति. धातुपाठे कथं दृश्यते, लौकिकधातोः रूपं कथं साधनीयं वदतु.
लौकिकरूपं षकारस्य स्थाने इदानीं मूलधातु षकारः अस्ति चेत् तत्र उपदेशावस्थानायां षकारस्य सकारादेशः भवति, धात्वादेशे षहसः इति सूत्रेण. सो इदानीं ष योगः था योगः इति स्थितिः अस्ति. तत्र ष्टुनाष्टु इति सूत्रेण ठकारः भवति, इदानीं ष्ठ इति रूपं भवति.
तत्र धातौ मूर्धन्यषकारः महाप्राणथकारः अस्ति, तादृशी स्थितिः अस्ति. धातुपाठे ष्ठल् इति रूपं दृश्यते, किमर्थं चेत् तत्र स्थितस्य षकारस्य प्रभावेण महाप्राणथकारस्य स्थाने ठकारादेशः, इत्युक्ते टवर्गीय महाप्राणठकारः आगतः. तदर्थमेव धातुपाठे ष्ठल् इति रूपं दृश्यते. किन्तु लौकिकरूपसाधनवेलायां धातोः आदौ षकारः अस्ति इति कारणतः धात्वादेः षहसः इति सूत्रेण पूर्वसूत्रस्य कार्यं कुर्मः चेत् तदा मूर्धन्यषकारस्य स्थाने यदा दन्त्यसकारः आगतः तत्र निमित्तं गतम्, अतः नैमित्तिकमपि तत्र नातिष्ठति. धात्वादेः सहसः इति पूर्वसूत्रेण कार्यं भवति चेत् परसूत्रस्य आवश्यकता एव तत्र नास्ति इति कृत्वा तत्र केवलं सकारः महाप्राणथकारः. धातुः भुवादिगणे अस्ति, वदतु.
थल् थलति इति थल् अत्र विकरण भुवादिगणः अस्ति, गणे अस्ति चेत् विकरणप्रत्ययः शप् अस्ति, अनुबन्धलोपानन्तरम् अकारः तिष्ठति. स्थल् योगः आयोगः ति, स्थलति इति रूपं भवति.
साधु भगिनि, तदेव. अन्यधातुः अस्ति, सुन्दरकल्याण महोदय वदतु.
अस्य धातोः अर्थः
श्नै वेष्टने शोभायाञ्च, इदानीं वदतु महोदय. स्पद्यम्
अन्तिमवर्णः अनुनासिक इत् वर्णः, तत् तत्कारणेन इत्संज्ञा भवति. तदा एतद् धातुः इदित् धातुः भवति. तत्कारणेन बदिं नुमागमः नुमागमः भवति नुमागमः नुमागमः दकारस्य दकारस्य पूर्वं नुमागमः भवति तत्र वदिं वन्द् वन्द् इति रूपं रूपं सिद्ध्यति.
सन्धिकार्याणि अपि वक्तव्यानि. इदितोनुं धातोः इति सूत्रेण नुमागमः भवति. सः नुमागमः मेदचोन्त्यात् परः इति सूत्रेण अन्तिम अचुवर्णस्य अनन्तरम् आयाति. इत्युक्ते दन्त्यनकारः अन्तिम अचुवर्णात् परम् आयाति. तेन स्पन्द् इति रूपं भवति. पश्चात् नश्चापदान्तस्य झली सूत्रेण अनुस्वारयुक्तं रूपं. तस्मात् परम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णयुक्तं रूपम् अपि लेखनीयम्. अन्ततो गत्वा भेदं न अवगन्तुं शक्नुमः. किमर्थं चेत् आदौ दन्त्यनकारः आयाति सन्धिकार्यद्वयानन्तरम् अपि तवर्गीय अनुनासिकवर्णादेशः इत्युक्ते दन्त्यनकारः एव आयाति इति कृत्वा भेदम् अवगन्तुं न शक्नुमः. रूपपरिवर्तनं न दृश्यते चेदपि सन्धिकार्यद्वयं करणीयम् एव खलु. अग्रे करोतु.
अग्रे धातुः किं भगिनि?
चलने इत्यस्मिन् अर्थे कपिम् अस्ति.
कपिम् इति धातुः कपिम् इति धातुः तत्र अन्तिम अन्तिम इत्वर्णः अनुनासिक अनुनासिक अस्ति. तत्कारणेन इत् धातोः इत्तस्य इत्संज्ञा भूत्वा लोपः भवति. लोपः भवति. एतद् धातुः इदित् इदित् धातुः भवति. तत्कारणेन नुमागमः नुमागमः आगच्छति. एतद् नुमागमः नुम् आगच्छति उप दकारस्य पकारस्य पकारस्य पूर्वं पूर्वमेव आगच्छति. कन्प् इति रूपं सिद्ध्यति. हलि
पकारः झल् वर्णः अस्ति.
पकारः झल् वर्णः अस्ति. झलि झलि परे तस्य अनुस्वार मो अनुस्वारः इति
नश्चापदान्तस्य झलि. अत्र मोनुस्वारः कार्यं नास्ति. मोनुस्वारः कार्यं पदान्तकार्यं. पदमस्ति चेदेव तस्य कार्यं भवति. किन्तु नश्चापदान्तस्य झलि इति सूत्रे अपदान्तस्य इति उक्तमस्ति. अत्र अपदान्तनकारः अस्ति. इदं पदं नास्ति. कन्प् इति पदं नास्ति. पदसंज्ञा कथं भवति? सुप्तिङन्तं पदम् इति सूत्रेण अन्ते सुप्रत्ययः अथवा तिङ्प्रत्ययः अस्ति चेदेव पदं भवितुमर्हति. कन्प् इति पदं नास्ति. अपदान्तनकारः अत्र अस्ति. झल् वर्णः पकारः अस्ति इति कृत्वा वदतु.
अपदान्तस्य झलि परे तस्य सवर्णः भवति. सवर्णः भवति पकारस्य सवर्णः पपबभम इति. मकारः भवति नकारस्य स्थाने मकारः आगच्छति. तस्मात् कारणात् कम्प् रूपं सिद्ध्यति.
अयं धातुः बहु प्रसिद्धधातुः. किञ्चित् चलने इत्यस्मिन् अर्थे अयं धातुः अस्ति. भुवादिगणे अस्ति. अपि च आत्मनेपदी धातुः अस्ति. कम्पते वयं सर्वे शृणुमः खलु. कम्पनं लौकिकधातुः. कम्प् भवति पवर्गी अन्तिम अनुनासिकव्यञ्जनं. मकारयुक्तं रूपं लेखनीयम्. आदौ नकारः आयाति पश्चात् अनुस्वारयुक्तं रूपं. तस्मात् परम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण पकारः यै प्रत्याहारस्थवर्णः अस्ति. यगी परे अत्र परसवर्णादेशः भवति इति कृत्वा परसवर्णयुक्तं रूपम् अन्ते लेखनीयम्. तेन लौकिकधातोः रूपं कम्प् मकारयुक्तं रूपं. धातुः अकर्मकः. कर्मपदं न स्वीकरोति. अग्रे मह्यौ इति लिखितमस्ति. भवान् वक्तुमिच्छति वा?
धातुः किं?
मह्यौ.
अत्रापि अन्तिमवर्णः इत् वर्णः अनुनासिक इत् वर्णः तस्मात् अत्र इत् संज्ञा भूत्वा लोपः भवति महिम् इति मख् इति एव अवशिष्यते इदित् धातुः अस्ति इति कारणेन तस्य मो अनुस्वारः इति सूत्रेण इदितोनुम् धातोः इति सूत्रेण नकारस्य प्रवेशः भवति महिम् इति धातु किल
न अत्र कीदृशचिन्तनम् आवश्यकं नरसिंह हेग्डे महोदय भवान् किञ्चित् विवृणोतु अत्र कीदृशानि कार्याणि भवन्ति महो इति धातुः अस्ति वृद्धौ टु ग्रो इत्यस्मिन् अर्थे भुवादिगणे महो इति एकः धातुः अस्ति वदतु लौकिकधातोः रूपं कथं साधनीयम्
अत्र अनुनासिकैकारस्य उपदेशे जनुनासिक इत्यनेन संज्ञा भवति तस्य लोप इति लोप भवति मह् इति अवशिष्यते अत्र अनुनासिक इकारस्य संज्ञा अस्ति अतः अत्र नुमागम भवति इतोनुम् धातु इत्यनेन महि इति भवति मिदुतोन् तात्पर्य इत्यनेन तत्र मकारस्य उत्तरवर्ति अकारस्य अनन्तरं नकार आयाति महि इति धातु तदेव अस्ति न महोदय महि
अनुबन्धलोपानन्तरं मह् भवति हकारोत्तरवर्ति इकारस्य इति संज्ञा भूत्वा मह् भवति इदितोनुम् धातोः इति सूत्रेण नकारः अकारात् परम् आयाति तेन मन्ह दन्त्यनकारयुक्तं रूपं मन्ह भवति तस्मात् परं सन्धिकार्याणि भवन्ति वा इति चर्चनीयं धातुः इदित् धातुः अस्ति इति कृत्वा नुमागमः भवति तेन मन्ह दन्त्यनकारयुक्तं रूपम् आदौ सिध्यति तस्मात् परं सन्धिकार्याणि भवन्ति वा
मा उपरि अनुस्वारः एव आगच्छति भगिनि नकारः न आगच्छति किमर्थम् अहं न जानामि महते आत्मनेपदी अस्ति महते इति भवति
इदितो नुम् धातुः कार्यं करोति एव अतः नकारः आगच्छति मन्ह भवति अनन्तरं नश्च पदान्तस्य झलि कार्यं करोति किमर्थं चेत् हकारः झल् वर्णः अस्ति अतः अनुस्वारः आयाति मंह इति रूपं भवति
साधु भगिनि साधु उक्तवती अत्र एकमेव सन्धिकार्यं भवति आदौ दन्त्यनकारयुक्तं रूपं मन्ह भवति नुमागमः भूत्वा दन्त्यनकारयुक्तं रूपं मन्ह अत्र हकारः झल् प्रत्याहारस्थवर्णः पश्यन्तु झकारात् आरभ्य अन्तिमसूत्रं हल् पर्यन्तं सर्वेषां व्यञ्जनानां ग्रहणम् अस्ति झलि हकारः झलि अस्ति नश्चापदान्तस्य झलि इति सूत्रेण झल् वर्णे परे अनुस्वारादेशः भवति तेन अनुस्वारयुक्तं रूपम् आदौ आयाति किन्तु तत्र अनुस्वारस्य ययि परसवर्णः इत्यस्य कार्यमस्ति वा इत्यपि चिन्तनीयम् अनुस्वारस्य ययि परसवर्णः इत्यत्र यै प्रत्याहारस्थवर्णः परः अस्ति चेदेव परसवर्णादेशः भवति किन्तु अत्र यै वर्णः नास्ति हकारः यै प्रत्याहारे नास्ति खलु एकवारं पश्यन्तु यै इति कथनेन हयवरट् इत्यस्मिन् सूत्रे या अस्ति तस्मात् आरभ्य कपै पर्यन्तं स्वीकर्तव्यं यै प्रत्याहारे हकारः नास्ति इति कृत्वा अनुस्वारस्य यै परसवर्णः इति सूत्रस्य कार्यं नास्ति अतः अत्र केवलम् अनुस्वारयुक्तं रूपमेव लेखनीयं हकारस्य परसवर्णः नास्ति लटीरूपमस्ति मौहते मौहते इति लेखनावसरे अनुस्वारयुक्तं रूपमेव लेखनीयं साधु महोदय धन्यवादाः प्रतिमा भगिनी भवती वदतु गुर्वी इति धातुः अस्ति उद्यमने इति अर्थे
गुर्वी उपदेशे अजोननुनासिक सूत्र न भवति अनुनासिक इकारणस्ति
क्षम्यतां सम्यक् रीत्या न लिखितं तत्र अनुनासिक ईकारः अस्ति भगिनि
गुर्विङ् तु उपदेशे अजनुनासिकसूत्रेण दीर्घ इकारस्य इति संज्ञा भवति, केवलं गुर्व अवशिष्यते, गुर्व अवशिष्यते, गुर्व उपधायां लघु उकार अस्ति, तेन रेफस्य I don't know, I can't explain this.
भवती यत् जानाति तत् वदतु. अत्र मुद्रणदोषः तु अस्ति, उर्वी यथा लिखितम् अस्ति तथा एव अत्रापि चन्द्रबिन्दुसहित दीर्घईकारः लेखनीयः. वकारोत्तरवर्ती अनुनासिक ईकारस्य इति संज्ञा, उपदेशजनुनासिक इत् तस्य लोपः द्वाभ्यां सूत्राभ्यां भवति, तेन गुर्व इति रूपं सिद्ध्यति. धातोः रूपं कथमस्ति, वर्णानां क्रमः कथम् अस्ति एकवारं पश्यतु.
क प्लस् योग उप योग र योग व.
अयं धातुः वकारान्तधातुः. हल् वर्णात् पूर्वं रेफः अस्ति, रेफात् पूर्वम् उपधायां लघु इक् वर्णः लघु उकारः अस्ति खलु. उपधादीर्घत्वं भवितुं सर्वाणि निमित्तानि पूरितानि सन्ति, तदर्थमेव अत्र उपधायाञ्च इति सूत्रेण उपधादीर्घत्वं भूत्वा लौकिकधातोः रूपं किं भवति?
गूर्वति.
लौकिकधातुः गूर्व, उपधायां च इति सूत्रेण उपधादीर्घत्वं भूत्वा गुरु. धातुः भुवादिगणे अस्ति इति कारणतः शपायाति, गुर्वति इति रूपम्. उद्यमने इत्यस्मिन् अर्थे अस्ति अकर्मकधातुः. इदं कार्यं परनिमित्तम् अनपेक्ष्य भवति, लौकिकरूपसाधनवेलायाम् इदं कार्यं करणीयम्. अन्तिमधातोः रूपं वदतु.
अत्र अनुनासिक इकारान्त अस्ति, सो अजो उपदेशे अजो अनुनासिकसूत्रेण तस्य इत्संज्ञा भवति, निद अवशिष्यते. धात्वादे नो नः सूत्रेण नी स्थाने नी आयाति, निद अवशिष्यते. निदधातु इदित् अस्ति, तेन कारणेन नुमागमो भवति. नुमागमो भूत्वा निन्द धातु सिद्ध्यते. तदनन्तरं नश्चापदान्तस्य झवि सूत्रेण नकारस्य अनुस्वार भवति, निन्द धातु भवति. तत्परे यै परसवर्णे सूत्रेण नकार अनुस्वारस्य परसवर्ण दस्य परसवर्ण न निन्द धातु भवति. इदं धातु भुआदिगणे अस्ति, तेन कारणेन शप प्रत्ययायाति. निन्द अनुबन्ध निष्कासनानन्तर शपस्थाने अ अवशिष्यते, निन्द योग अयोगति निन्दति भवति. सो अन्तिम धातु रूपं निन्दति भवति.
साधु भगिनी उत्तमरीत्या उक्तवती तदेव. अत्र निन्दति इति लटीरूपम् अस्ति, औपदेशिकधातुः इदित् धातुः, अतः अत्र इदितोनुं धातोः कार्यम् अस्ति. आदौ मूर्धन्यणकारः अस्ति इति कारणतः णोनः सूत्रेण दन्त्यनकारः आयाति, अनुबन्धलोपानन्तरम् आदौ णोनः कार्यं भवति, परम् इदितोनुं धातोः इत्यनेन नुमागमः भवति. तस्मात् परं सन्धिकार्यद्वयस्य अनन्तरं निन्द् इति रूपमेव तत्र आयाति. रूपं न परिवर्तते, किन्तु सन्धिकार्यद्वयं करणीयम्. अस्मिन् धातौ कार्यद्वयं भवति, नत्वकार्यं भवति, नुमागमकार्यम् अपि भवति. आहत्य लटिरूपं निन्दति अयं धातुः कुत्सायाम् इत्यस्मिन् अर्थे अस्ति. सकर्मकधातुः परस्मैपदिरूपं निन्दति. सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः. आगामिनि सप्ताहे नूतनपाठं प्रति गमिष्यामः. धातुविज्ञानं तृतीयभागः इति विषयः, अपि च इड्व्यवस्थायाः प्रसङ्गे अपि तस्मिन् पाठे उक्तमस्ति. सर्वेषां कृते इदानीं धन्यवादान् व्याहरामि.
धन्यवादाः
भगिनी.